एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः प्रतिनिधि सभाया ह्यस्तनोपवेशे प्रतिपक्षिणो राष्ट्रपा राप्रपा दलयोः विरोधस्य मध्ये एतद् विक्रमवर्षीयस्य विनियोजन विधेयकस्य अन्तर्गतानि विभिन्न मन्त्रालयगत शीर्षकाणि आधृत्य विहिते समूहगत विमर्शने उत्थापितानाम् प्रश्नानाम् उत्तरम् मन्त्रालयानाम् सम्बद्ध मन्त्रिभिः प्रदत्तमस्ति। ह्यस्तनोपवेशे ऊर्जोजल स्रोत सेचन मन्त्री दीपक खड्का, पेयजल मन्त्री प्रदीप यादव, परराष्ट्र मन्त्री डाक्टर आरजू राणा देउवा, वनवातावरण मन्त्री ऐनबहादुर साई ठकुरी, संघीय विषय सामान्य प्रशासन मन्त्री राजकुमार गुप्ता, कृषि पशुपक्षी विकास मन्त्री रामनाथ अधिकारी, रक्षा मन्त्री मानवीर राई, स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेल, सम्बद्ध मन्त्रालय सम्बद्धानाम् उत्थापितानाम् प्रश्नानाम् उत्तरम् प्रायच्छन्। मन्त्रिणाम् उत्तर प्रदानस्य क्रम अद्यापि चलतीति ज्ञापितम् वर्तते। अद्यतनोपवेशे मन्त्रिणाम् उत्तर प्रदान क्रमस्य समाप्तेः पश्चात् एतद् विक्रमवर्षीयस्य विनियोजन विधेयकस्य निर्णयार्थम् प्रस्तुतेः सम्भावित कार्यसूची वर्तते। राष्ट्रिय सभाया ह्यस्तनोपवेशेन चलचित्र सम्बद्धम् विधिम् संशोधयितुम् एकीकर्तुम् च निर्मितम् एतद् विक्रमवर्षीयम् विधेयकम् विचार्यताम् इति निगद्य प्रस्तुतः प्रस्तावः स्वीकृतोऽस्ति। विधेयकम् आदित्य विहिते सैद्धान्तिक विमर्शने उत्थापितान् प्रश्नान् उत्तरयन् संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ षड्विंशत्युत्तर द्विसहस्रतमे वैक्रमाब्दे निर्मितम् चलचित्र विधेयकम् समय सापेक्षतया परिमार्ज्य समावेशिन्याः संघीय संरचनायाः नवीन प्रविधेयश्च अनुरूपम् विधातुम् चलचित्र सम्बद्धस्य विधेयकस्य प्रारूपम् निर्मीयमाणमस्तीति असूचयत्। तत्पूर्वं प्रस्तावमादृत्य विहिते विमर्शने सांसदैः चलचित्रस्य नियमने स्पष्टता पारदर्शिता च न दृष्टा, सर्वकारीय नियन्त्रणं वर्धितुं शक्ष्यतीति च कथयद्भिः अत्याधुनिक प्रविधेः समाह्वयानां प्राधिकरणत्वेन विज्ञानां सम्बद्ध पक्षाणां च सहभागितायां विधेयकस्य परिमार्जनं विधाय अग्रेसारयितुं परामृष्टमस्ति। राष्ट्रिय सभाया ह्यस्तनोपवेशे प्रधानमन्त्रिणः केपी शर्मा ओलिनः पक्षतः संचार मन्त्री गुरूङ राष्ट्रिय सूचना आयोगस्य अशीत्युत्तर द्विसहस्रतम विक्रम वर्षस्य एकाशीत्युत्तर द्विसहस्रतम विक्रम वर्षस्य च वार्षिकम् प्रतिवेदनम् प्रस्तौत। राष्ट्रिय सभायाः अपरोपवेश सेवा आषाढ मासस्य द्वादशे दिवसे परश्वः बृहस्पतिवासरे दिवा सपादैकवादने वस्ता। राष्ट्रिय विपद संकट न्यूनीकरण व्यवस्थापन प्राधिकरणेन सार्वजनिक नैज यातायात साधनानां संचालनम् आवश्यकताया अनुसारेण निषेधयितुं सम्बद्ध निकायेभ्यः अनुरोद्धुं निर्णीतं वर्तते। वर्षायामज दुर्घटना प्रतिकार्य नियामक समिते ह्यस्तनोपवेशे सार्वजनिक नैज यातायात साधन संचालनम् आवश्यकताया अनुसारेण निषेधयितुं सप्तसप्ततिम् एव जनपद सुरक्षा समितिः निर्देष्टुम् गृहमन्त्रालयाय अनुरोद्धुम् निर्णीतम् वर्तते। प्राधिकरणस्य कार्यकारी प्रमुख दिनेश प्रसाद भट्ट वर्षायामस्य अवधिम् यावद् वृष्टेः कारणेन सम्भावितान् जलविप्लव भूस्खलनादीन् दृष्टिगतान् विधाय यातायात साधनानाम् सञ्चालनम् निषेद्धुम् आदेश प्रदानाय गृहमन्त्रालयाय अनुरोधः विहितोऽस्तीति असूचयत्। शङ्खुवासभा जनपदे पञ्चाशत् शय्यायुतस्य जनपद चिकित्सालयस्य निर्माण कार्यस्य समाप्तेः अनन्तरम् हस्तान्तरणम् विहितमस्ति। धनकुटा सघन नगरीय भवन निर्माण योजनया जनपद चिकित्सालय ह्यः हस्तान्तरितो वर्तते। अत्याधुनिक भवनस्य निर्माणेन सैव सेवा प्रवाहे अतःपरं सरलता भविष्यति। भवन हस्तान्तरण कार्यक्रमे जनपद समन्वय समिति प्रमुख चिकित्सालय विकास समितेः अध्यक्ष सुमन साक्य सम्प्रति नवीने भवने सेवा सञ्चालनाय कार्यम् प्रारप्स्यमाणमस्तीति असूचयत्। चिकित्सालय भवनम् सप्तविंशतेः कोटीनाम् सप्तविंशतेः लक्षाणाम् अशीतेः सहस्राणाम् च रूप्यकाणाम् व्ययेन निर्मितम् अस्तीति भवन निर्माणायोजनायाः प्रमुख सुमन कुमार मिश्रः असूचयत्। प्रधानमन्त्री नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली गदति युवसु दिग्भ्रान्तेषु सत्सु परिवर्तनस्य अग्रगमनस्य च गति मन्दायते। राष्ट्रिय युवसंघ नेपालस्य केन्द्रीय समिते द्वितीयं पूर्णोपवेशम् ह्यः सम्बोधयन् प्रधानमन्त्री ओली युवभिः व्यक्तिनाम् अपेक्षया उचित विचाराणाम् नेतृत्वानाम् च पक्षपोषणाय प्रवर्तनीयमिति बलम् प्रादात्। प्रधानमन्त्री ओली समुचित रूपेण नेतृत्वकरणाय सामर्थ्याञ्जनान् प्रति युवभिः असहिष्णु भिर्न भाव्यमिति भासमाणः अन्वेषणस्य कार्याणि विश्वस्मिन् विश्वे युवभिः एव विहितमस्तीत्यतः स्वस्य क्षेत्रे दक्षताम् नूतनोपलब्धिम् च अधिगन्तुम् अग्रेसराः भवितुम् यूनः आह्वयत्। माध्यमिक शिक्षा परीक्षायाः परीक्षाफलम् आषाढमासस्य तृतीयं सप्ताहं यावत् प्रकाशयितुं पूर्वकार्यं विधीयमानमस्ति। राष्ट्रिय परीक्षा समितेः परीक्षा नियन्त्रण कार्यालयस्य परीक्षा नियन्त्रकः डा गणेश प्रसाद भट्टराई माध्यमिक शिक्षा परीक्षायाः परीक्षाफलस्य प्रकाशनाय तीव्ररूपेण पूर्वकार्यं विधीयमानमस्तीति असूचयत्। उत्तर पुस्तिकायाः परीक्षणस्य सम्परीक्षणस्य च कार्यम् समाप्य प्राप्ताङ्कानाम् अभिलेखीकरणम् विधीयमानमस्तीति परीक्षा नियन्त्रकः भट्टराई असूचयत्। एकाशीत्युत्तर द्विसहस्रतम वैक्रमाब्दस्य चैत्र मासस्य सप्तमात् दिवसात् ऊनविंशम् दिवसम् यावत् सञ्चालितायाम् माध्यमिक शिक्षा परीक्षायाम् पञ्चलक्षाणि दशसहस्राणि च छात्राः सहभागिनः आसन्। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षम् नेपालस्य कृते नवनियुक्तैः राजदूतैः शीतलनिवासवर्तिनी राष्ट्रपति भवने ह्यः आयोजितेषु पृथक् पृथक् समारोहेषु स्वस्व पदस्य प्रमाणपत्राणि प्रस्तुतानि सन्ति।